सर्वेषां संस्कृतकक्षायां पुनः एकवारं स्वागतम्. प्रथमतया अहम् एकं श्लोकं वदामि. संसारविषवृक्षस्य द्वे फले अमृतोपमे सुभाषितरसास्वादः सङ्गतिः सुजनैः सह. इत्युक्ते अस्मिन् सुभाषिते सुभाषितकारः वदति, अयं संसारः एकः विषसहितवृक्षः. अत्र संसारः इत्युक्ते सम्यक् सरति इति संसारः. संसारः अयं संसारः कश्चन विषसहितवृक्षः, परन्तु तस्य द्वे फले स्तः, ते अमृतम् इव स्तः. ते फले के इति वयं चिन्तयामश्चेत् एकं फलमस्ति सुभाषितानां रसास्वादनम्. इत्युक्ते यदि वयं सुभाषितं शृणुमः तस्य रसम् अनुभवितुं शक्नुमः. अन्यं फलमस्ति सज्जनानां सङ्गः, इत्युक्ते सज्जनानां मेलनं. तत्तु अन्यं फलमस्ति अयं संसारे. परन्तु यदि वयम् अस्य फलद्वयस्य अनुभवम् इच्छामः, तर्हि संस्कृताध्ययनेन एव एतत् कार्यं सिद्ध्यति. संस्कृताध्ययनेन वयं संस्कृतसुभाषितानि सम्यक् पठित्वा अवगम्य अनुभूतिं प्राप्तुं शक्नुमः. अपि च अस्माकं संस्कृतकक्षायाम् इतोपि अन्यं कार्यमपि कर्तुं शक्नुमः. तत् किम् इत्युक्ते सज्जनानां जीवनविधानं सम्यक् परिशीलयितुम्, अपि च तेषां जीवनविषये सम्यक् ज्ञातुं संस्कृतपुस्तकानि पठितुं शक्नुमः, पठित्वा ज्ञानं सम्पादयितुं शक्नुमः. तथा एव तदर्थं वयं सर्वे अत्र संस्कृताध्ययनेन एव उपरि उक्तं फलद्वयमपि वयं प्राप्तुं शक्नुमः. अतः विलम्बेन विना संस्कृतपठनं आरम्भं कुर्मः. उत्तमम्. अपि च विलम्बेन केनापि आगतं वा अधुना अत्र? नाम उच्यतां. विलम्बेन के आगतवन्तः? अधुना वयं किं कुर्मः इत्युक्ते, गते सप्ताहे अहं किञ्चित् गृहपाठं प्रेषितवती. गृहपाठविषये किञ्चित् कार्यं किञ्चित् कालं चिन्तनं कुर्मः. तदनन्तरम् अद्य अन्यं विषयमपि, अन्यानि पदानि अपि वयं ज्ञास्यामः. अधुना अत्र गते सप्ताहे गृहपाठः कः? कादम्बरी भगिनी, भवती वदतु गृहपाठः कः?
गृहपाठः भवति शीघ्रं मन्दम् उच्चैः शनैः सम्यक् समीचीनम् उत्तमं सुन्दरं कथं किमर्थं किमर्थम् इति दशपदानि उपयुज्य वाक्यानि लिखन्तु.
अत्र कति पदानि सन्ति?
दशपदानि सन्ति.
कति वाक्यानि लिखितवती भवती?
अहं दशवाक्यानि लिखितवती.
श्रावयतु.
कार्यानं शीघ्रं चलति. अहं शीघ्रं पाठशालां गच्छामि. कूर्मः मन्दं गच्छति. वृद्धाः मन्दं चलन्ति. गजेन्द्रः कृष्णा कृष्णा इति उच्चैः गर्जति. यः भारतदेशे शाखां विक्रयणं करोति, सः उच्चैः वदति शाखा अस्ति, शाखा अस्ति इति. सीता लज्जा भवति तदा. या सीता लज्जा भवति तदा सा शनैः वदति. यदा विद्यालये अहम् उत्तमम् उत्तरं ददामि तदा मम आचार्यः सम्यक् अथवा समीचीनम् इति वदति. महिला शाटिकां धारयति चेत् सुन्दरं भवति.
अत्र धारयति महिला धारयति चेत् किं
भवती
सुन्दरी सुन्दरी इति वदामः वा?
ओ अहं न जानामि.
वदतु अन्यं वाक्यं वदतु.
भवती कथं भवती किमर्थम् अहं विद्यालयं गच्छामि?
भवती तत् वाक्यं श्रावयतु. भवती किं भवति अवगतवती तत् वाक्यं किं
भवती भवती कथं भवति
कथमस्ति इति वदामः कथं भवति इत्यपि. अस्तु तावदेव वा? उत्तमम् उत्तमानि वाक्यानि. अपि च उमाशङ्करमहोदय श्रावयतु लिखितवान् वा वाक्यानि महोदय? न श्रूयते महोदय.
आं भगिनि
वदतु.
अहं शीघ्रम् उत्तिष्ठामि. अहं भोज अहम् अल्पाहारं मन्दं खादामि. अहं अहं वेदम् उच्चैः वदति.
अहं वदामि
अहं वेदमन्त्रम् उच्चैः वदति
वदामि
वदामि सोरि वदामि. अहं गायत्रीमन्त्रं शनैः वदामि.
अस्तु महोदय. अनन्तरं सुचित्रा भगिनी भवती श्रावयतु.
आं भगिनि. अहं प्रतिदिनं शीघ्रं पाकं करोमि. मम पुत्रायोः शीघ्रं विद्यालयं गच्छन्ति.
अत्र पुत्रद्वयं वा?
द्वयं द्वि टू गर्ल्स्
द्वौ 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 पुत्रौ.
जनाः मतदानं करणीयं शीघ्रं कार्यं कुर्वन्ति.
कर्तुं मतदानं कर्तुं
करणीयं कर्तुं भगिनि
मतदानं कर्तुं
कर्तुम् ओके
कर्तुम् अनन्तरं अनन्तरं वाक्यं श्रावयतु.
Actually, I wrote like this. I had a doubt here. So, जनाः मतदानं कर्तुं शीघ्रं तस्य कार्यं कुर्वन्ति या तदीय कार्यं कुर्वन्ति. I didn't know which one to use.
जनाः तेषां कार्याणि कुर्वन्ति.
तेषाम् ओके तेषां
मतदानं कर्तुं
कर्तुं शीघ्रं तेषां कार्यं कुर्वन्ति. मन्दं गजाः वने मन्दं चलन्ति. मन्दं खादितुं शरीरं सम्यक् अस्ति. इस् दट् करेक्ट् भगिनि?
मन्दं
खादितुं
खादामश्चेत्
खादामः चेत् ओके मन्दं खादामश्चेत् शरीरं सम्यक् अस्ति अहं संस्कृतगृहपाठं मन्दं करोमि उच्चैः नेता उच्चैः वदति मन्दिरस्य घण्टाः उच्चैः रटन्ति शनुकः उच्चैः बुक्कति
इत्युक्ते भुक्कति भाषति वा
बुक्कति
इत्युक्ते भाषति अहं चिन्तयामि वदतु भषति
भषति
भुक्कति अपि अस्ति
शनैः विद्यार्थिनी शनैः पाठम् उक्तवती मार्जः शनैः रणति पर्रिङ्ग् क्याट्
खनति किं किं वदति खनति
रणति 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 पर्रिङ्ग्
पुनः तदेव वाक्यं श्रावयतु
मार्जारः शनैः रणति द क्याट् साफ्ट्लि पर्स्
मार्जारः
मशिकः शनैः पुष्पस्य ऋङ्गारं करोति ऐ डोण्ट् नो वेदर् इट् इस् पुष्पस्य ऋङ्गारं करोति या पुष्पेन ऋङ्गारं करोति
तत्र ऋङ्गारम् इत्युक्ते किं पदं
बज़िङ्ग् बट् इस् इट् पुष्पस्य ऋङ्गारं करोति या पुष्पेन ऋङ्गारं करोति
वाक्यं समीचीनं नास्ति भगिनि पुनः अन्यं वाक्यं श्रावयतु
तदेव वाक्यं या अन्यं वाक्यं
श्रावयतु
प्रतिदिनं गृहपाठं करणीयं संस्कृतं सम्यक् भवति
गृहपाठं सम्यक्
करणीयं
पुनः
प्रतिदिनं गृहपाठं करणीयं संस्कृतं सम्यक् भवति
तथा न वदामः सम्यक् कुर्मः चेत्
सम्यक् कुर्मः चेत् ओके ओके
प्रतिदिनं गृहपाठं प्रतिदिनं गृहपाठं सम्यक् रीत्या कुर्मः चेत् किं भवति
संस्कृतं
सम्यक् भवति उत्तमं भवति
अद्यतनीय चलनचित्रं सम्यक् नास्ति
अद्यतन अद्यतन इति उक्तवती
ओके मन्दिरस्य ब्रह्मोत्सवं
तत्र तत्र भगिनी अत्र अद्यतनचलनचित्राणि सम्यक् न सन्ति इति वक्तुम् इच्छति वा अद्यतन
ओके
इत्युक्ते अत्र अभ्यासपुस्तके एव अद्यतन ह्यस्तन श्वस्तन इति पदानि अग्रे गत्वा वयं पठिष्यामः परन्तु अद्यतनचलनचित्राणि सम्यक् न सन्ति
मन्दिरस्य ब्रह्मोत्सवं सम्यक् आसीत् समीचीनं भोजनं समीचीनम् अस्ति क्रीडकाः समीचीनं चतुरङ्गं क्रीडितवान्
चतुरङ्गं क्रीडितवान् अस्तु अनन्तरं
लक्ष्मीः भगिनी साप्ताहिकसंस्कृतम् उत्तमं पाठयति
साप्ताहिक इत्युक्ते तत्र
वीक्लि
इत्युक्ते किं
वीक्लि
अस्तु तावदेव वा, धन्यवादः. अनन्तरम् अधुना राजीव् महोदय भवान् श्रावयतु, लिखितवान् वा?
लक्ष्मी भगिनी, डिड यू आस्क राजीव्
महोदय, भवान् लिखितवान् वा?
आं भगिनि,
श्रावयतु.
मम पत्नी सुखम्, अहं शीघ्रं पाकशालां स्वच्छयामि. मम सुतः भारतवर्षीय भोजनं मन्दं खादन्ति. नवीनवधु प्रथमं शनै वदति. उच्चैः वदतु, कर्णहीनाय उपकारम् अस्ति.
पुनः उच्चैः वदतु, अपि च
उच्चैः वदतु, कर्णहीनाय उपकारम् अस्ति.
कारणमस्ति
टु टु हेल्प् द डेफ फॉर हार्ड टु हियर पीपल.
अस्तु.
अहं सम्यक् तव मित्रं न जानामि.
सम्यक् न जानामि. अस्तु.
मम पत्नी समीचीनं भोजनं पाकं करोति.
उत्तमं.
वातावरणम् अद्य सुन्दरम्. मम पुत्री उत्तमं नृत्यं करोति.
उत्तमं.
विमानयात्रा कथम् अस्ति? विमानयात्रा उत्तमम् अस्ति.
उत्तमं.
सः किमर्थं कार्यालयं गच्छति? सः उपार्जनार्थं कार्यालयं गच्छति.
उत्तमं. तावदेव वा? अस्तु. अनन्तरं शङ्करन् महोदय भवान् अपि श्रावयतु. महोदय.
आं भगिनि, अहं धनार्थं शीघ्रं पाठशालां वित्तकोषं गच्छामि. शनीश्वरः मन्दं मन्दं चरति. बालकाः उच्चैः गीतं गायन्ति. अहं जपं शनैः करोमि. रामस्य आरोग्यं कथम् अस्ति? रामस्य आरोग्यं सम्यक् अस्ति अथवा समीचीनम् अस्ति? कश्मी भगिनी वर्गे उत्तमम् अस्ति. सुन्दरकण्ठपठनं बहु सुन्दरम् अस्ति. तदेव अहं लिखामि भगिनि.
भवान् तदेव लिखितवान्?
तदेव लिखितवान्.
अस्तु महोदय, अधुना वयं किं कुर्मः इत्युक्ते, गते सप्ताहे वयं किमर्थम् इत्यस्मिन् विषये किञ्चित् ज्ञातवन्तः. अद्य इतोपि किमर्थम् इत्यस्मिन् विषये कांश्चन प्रश्नान् पृच्छामि. भवान् एव उत्तरं वदतु एकवारं. भवान् किमर्थं संस्कृतं पठितुमिच्छति?
अहं ज्ञानार्थं, संस्कृतज्ञानार्थं पठितुम् इच्छामि. संस्कृतं पठितुम् इच्छामि.
उत्तमम्. यदि भवान् प्रयागं गच्छति चेत् किमर्थं गच्छति प्रयागम्?
प्रयागम् इत्युक्ते किं भगिनि?
नगरस्य नाम, नगरस्य नाम
अलहाबाद्। आम् 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 अहं मम पितृश्रादार्थं प्रयागे गच्छामि।
इत्युक्ते गङ्गास्नानार्थं,
गङ्गास्नानार्थम् अथवा देवतापूजनार्थं गच्छामि।
अस्तु, यदि यदि भवान् देहलीनगरं गच्छति चेत् किमर्थं गच्छति?
दिल्लीनगरं वा?
देहलीनगरम्।
अहं
किञ्चित् सङ्केतं ददामि। दर्शनं, दर्शनम् इति पदं योजयित्वा वदतु।
अहं बिर्लामन्दिर् मन्दिरे रामस्य दर्शनार्थं दिल्ली गच्छामि।
देहलीनगरं गच्छामि। उत्तमं,
दिल्लीनगरं गच्छामि।
उत्तमम्। अपि च किमर्थं वृक्षाः फलन्ति?
वृक्षाः फलन् किमर्थं वृक्षाः फलन्ति?
वृक्षाः फलन्ति किमर्थं? परोपकारं वाक्यं वदतु महोदय।
ओ आम्, वृक्षाः फलं वृक्षन्ति।
न महोदय, न अत्र वृक्षाः परोपकारार्थं फलन्ति, तदेव वाक्यम्।
ओ वृक्षाः परोपकारार्थं फलन्ति। आम् आं भगिनि।
नद्यः किमर्थं वहन्ति? नद्यः
परोपकारार्थम् एव, तदेव।
यदि उत्तमं, यदि भवान् देवालयं गच्छति चेत् किमर्थं गच्छति?
दर्शनार्थम् अहं देवालयं गच्छामि।
उत्तमं, यदि भोजनालयं गच्छामश्चेत्?
खादनार्थम् अहं भोजनालयं गच्छामि।
उत्तमं, विद्यार्थिनः किमर्थं विद्यालयं गच्छन्ति?
विद्यार्थिनः वेदपठनार्थं विद्यालयं गच्छन्ति।
उत्तमम्, इत्युक्ते अध्ययनार्थम्।
अध्ययनार्थं, वेदाध्ययनार्थं वेदपाठशालां गच्छन्ति अथवा विद्यालयं गच्छन्ति।
उत्तमं, किमर्थं अध्यापकाः विद्यालयं गच्छन्ति?
अत्र अध्यापकाः
इत्युक्ते अध्ययनम्, अध्ययनम् एकं पदमस्ति, अध्यापनम् अन्यं पदम्। अध्यापनार्थम्,
ओ अध्यापनार्थं, धन्यवादः भगिनि। अध्ययनम् अध्यापनार्थं पाठशालां वेदपाठशालाम् अथवा पाठशालां गच्छन्ति।
उत्तमं, यदि भवान् चलनचित्रं मन्दिरं गच्छति चेत् किमर्थम्?
यदि भवान् चलनचित्रं
चलनचित्रमन्दिरं भवान् किमर्थं गच्छति? वाक्यं रचयतु।
No, I can't understand. चलनचित्रमन्दिरं, चलनचित्रं,
चलचित्रमन्दिरं महोदय, इत्युक्ते इत्युक्ते मूवी थियेटर्।
ओ चलनचित्रमन्दिरम् अहं मम उत्साह न गच्छामि।
उत्तमम्, उत्तमम्। अनन्तरम् अपि च वयं किमपि पुस्तकं पठामश्चेत् किमर्थं पठामः?
अहं रामायणं पुण्यार्थं पठामः, रामचन्द्रस्य दर्शनार्थम् अथवा पुण्यार्थम् अहं रामायणं पठामि।
इत्युक्ते साधारणतया वयं ज्ञानार्थं, ज्ञानार्जनार्थं पठामः।
ज्ञानार्थं
यदि शिशुः रोदिति शिशुः किमर्थं रोदिति
शिशुः शिशुः
आहारार्थम्
ahanartham that is right but I am just I know one word it is not coming hunger thirst and hunger
it's the bubuksha arti shoho bubuksha
tadartham
aharartham
aharartham rodati aharartham rodati
roditi
roditi aharartham roditi
इत्युक्ते अत्र हङ्गर् इत्युक्ते बुभुक्षा इति वदामः थर्स्ट् इत्युक्ते पिपासा अत्र इत्युक्ते कानिचन पदानि सन्ति भोक्तुम् इच्छा बुभुक्षा पातुम् इच्छा पिपासा ज्ञातुम् इच्छा जिज्ञासा कर्तुम् इच्छा चिकीर्षा तथा कानिचन पदानि सन्ति तथा एव मोक्तुम् इच्छा मुमुक्षुः वयं जानीमः एव मुमुक्षुः इति वदामः तत्र मुमुक्षा इति पदमस्ति तथा एव जिज्ञासा पिपासा चिकीर्षा एतानि पदानि इत्युक्ते ज्ञातुम् इच्छा जिज्ञासा इति वदामः यदि वयं योगासनानि कुर्मः चेत् किमर्थं योगासनानि कुर्मः
शरीर आरोग्यनार्थं योगासनं कुर्वन्ति करोति करोमि
आरोग्यवर्धनार्थं आरोग्यवर्धनार्थं योगासनानि
आरोग्यवर्धनार्थं योगासनानि कुर्मः
उत्तमं महोदय धन्यवादः अनन्तरम् अधुना इदानीं पर्यन्तं वयं किमर्थम् इत्यस्मिन् विषये किञ्चित् वयं पठितवन्तः अधुना अहं करपत्रत्रयं प्रेषितवती प्रथमं करपत्रं तत्र अस्ति अत्र अस्मिन् करपत्रे किमस्ति इति एकवारं पश्येम अत्र कादम्बरी भगिनी भवती अत्र अस्मिन् करपत्रे किं दत्तमस्ति प्रथमे करपत्रे अत्र किमर्थम् इति लिखितमस्ति अत्र एकवारं पठतु करपत्रं प्रथमं करपत्रं सर्वे प्रथमं करपत्रं पश्यन्तु अत्र किमर्थं सर्वेषां पार्श्वे अस्ति वा करपत्रं भगिनी भवत्याः पार्श्वे अस्ति वा अत्र दर्शनं पठनं तथा द्वादशपदानि सन्ति
दर्शनं पठनं गमनं पाठनं अवगमनं परिग्रहणं धावनं ग्रहणम् आरोहणं जननं अवरोहणं मरणं
भवती जानाति वा एतेषां पदानाम् अर्थः कः इति भवती जानाति वा
दर्शनम् इत्युक्ते सी टु सी पठनम् इत्युक्ते टु रीड् गमनम् इत्युक्ते टु गो पाठनम् इत्युक्ते टु रीड्
न पाठनं भगिनी भगिनी अत्र पाठनम् इत्युक्ते अहं संस्कृतं पाठयामि भवती पठति भवती पठति अहं पाठयामि
टु टीच्
उत्तमम् अनन्तरं
अवगमनम् इत्युक्ते अण्डर्स्टाण्ड्
उत्तमं
परिग्रहणम् इत्युक्ते अहं न जानामि
परिग्रहणम् इत्युक्ते रापिङ्ग् अराउण्ड् इत्युक्ते एङ्गल्फिङ्ग् उत्तमम्. अनन्तरं धावनं.
धावनम् इत्युक्ते रन्. ग्रहणम् इत्युक्ते अहं न जानामि.
कः वदति? अत्र राजीव् सिङ्ग् महोदय वदतु, ग्रहणम् इत्युक्ते किं?
टु एक्सेप्ट्.
ग्रहणं, ग्रहणम् इत्युक्ते होल्डिङ्ग्, होल्डिङ्ग् आर् क्याप्चरिङ्ग्. वयं सर्वे जानीमः एव सूर्यग्रहणं, चन्द्रग्रहणम् इत्युक्ते होल्डिङ्ग् आर् क्याप्चरिङ्ग् इत्युक्ते ग्रहणं. भगिनी वदतु अनन्तरम्. अनन्तरम् आरोहणम्.
आरोहणम् इत्युक्ते क्लैम्ब् अप्.
उत्तमम्.
गानानाम् इत्युक्ते जनानाम् इत्युक्ते बर्त्.
उत्तमं. मरणं.
मरणम् इत्युक्ते डेत्.
अवरोहणम्.
अवरोहणम् इत्युक्ते कम् डौन्.
उत्तमम्. आरोहणम् इति पदस्य विरुद्धार्थकशब्दः एव अवरोहणं. जननं तस्य विरुद्धार्थकपदं मरणम्. अपि च भवती जानाति एव पठनं, पाठनं. अत्र षड् वाक्यानि सन्ति, वाक्यानि पठतु अत्र.
उपरि दत्तानि पदानि फ्लुट् प्रत्ययान्तरूपाणि पठनम् एका क्रिया.
इत्युक्ते अत्र द्वादशपदानि सन्ति. एतानि पदानि भाववाचकपदानि इति वदामः, अपि च ल्युट् प्रत्ययान्तरूपाणि इति वदामः. इत्युक्ते किं? संस्कृतभाषायां धातवः सन्ति. धातुः इत्युक्ते क्रियापदस्य मूलरूपं, क्रियापदस्य मूलरूपम् एव धातुः. धातुतः प्रत्ययाः विधीयन्ते. यु आर् जायिनिङ्ग् दिस् प्रत्ययं टु द धातु, देन् यु आर् गोयिङ्ग् टु गेट् सम् वर्ड्स्. हियर् आल् दीस् 12 वर्ड्स् दे आर् आल् ल्युट् प्रत्ययान्तरूपाणि. अत्र पठनं एका क्रिया, एतानि क्रियावाचक अत्र भाववाचकपदानि. पठनं एका क्रिया, गमनं, धावनं, आरोहणम्, अवरोहणं, जननं, मरणम् एतानि एताः क्रियाः. अनन्तरं द्वितीयं वाक्यमस्ति, एतेषां पदानाम् अन्ते अर्धम् इति पदस्य संयोजनेन पठन इति पदस्य अनन्तरम् अर्धम् इति योजयामश्चेत् किं भवति? अत्र वदतु. पठन प्लस् अर्धं. पठनार्थम् इति भवति. इत्युक्ते अत्र पठन प्लस् अर्धं, पठनार्थम् अत्र सवर्णदीर्घसन्धिः भवति. अपि च अत्र दर्शन प्लस् अर्धं किं भवति?
दर्शनार्थं.
पाठन प्लस् अर्थं
पठनं.
पाठन प्लस् अर्थं पाठनार्थं.
पाठनार्थं.
तथा एव धावन प्लस् अर्थं तथा एव. अत्र पठनं किमर्थम् इति चिन्तयामश्चेत् अहं ज्ञानार्थं पठामि इति वदामः. तथा एव अहं किमर्थं पाठयामि इति प्रश्नं पृच्छामि चेत् आनन्दार्थं पाठयामि इति वक्तुं शक्नुमः. अस्माकं विषयः अस्ति किमर्थम्. अत्र पदानि सर्वाणि अपि ल्युट् प्रत्ययान्तरूपाणि. ल्युट् प्रत्ययस्य अनन्तरम् अर्थम् इति पदं योजनेन अत्र किमर्थम् इति प्रश्नस्य उत्तरं मिलति. अवगतवती वा? ग्रहणम् इति पद किमर्थं गृह्णाति? ग्रहणार्थं, पठनार्थं, पाठनार्थं तथा. अस्मिन् करपत्रे तावदेव अस्ति. अनन्तरम् इदानीं पर्यन्तं वयम् अभ्यासपुस्तके सप्तत्रिंशत्तमे पुटपर्यन्तं सप्तत्रिंशत्तमपुटपर्यन्तं वयं पठितवन्तः. वि हाव् स्टडीड् अण्टिल् अप् टु पेज् 37. अद्य वयं किञ्चित् पुनस्मरणरूपेण प्रश्नार्थकपदानि कानि, तेषाम् अर्थः कः इति किञ्चित् अभ्यासं कुर्मः पुनस्मरणरूपेण. वि आर् गोयिङ्ग् टु डू सम् रिविजन् टुडे अधुना. अत्र उमाशङ्करमहोदय, भवतः पार्श्वे द्वितीयं करपत्रमस्ति वा? अत्र सप्तककाराः इति द्वितीयं करपत्रं मया प्रेषितम्. पठतु महोदय, अत्र सप्तककाराः के?
खग सप्तककाराः खग
द्वितीयं सर्वे महोदय, सर्वे द्वितीयं करपत्रं पश्यन्तु.
खग का किं कदा कुत्र कुतः कति किमर्थं कथम्.
अहं चिन्तयामि भवान् जानाति एव एतानि पदानि. भवान् श्रुतवान् वा पूर्वमेव एतानि पदानि?
Yes.
Did you hear this word before?
Yes.
उत्तमं. भवान् एव एकमेकं पदं स्वीकृत्य कानिचन वाक्यानि श्रावयतु महोदय.
सग खग भवति का किं पुस्तकं सः कदा उत्तिष्ठति सा कुत्र गच्छति
सः कुत्र सा कुत्र गच्छति
आगच्छति कति फलानि सन्ति
उत्तमं
किमर्थं पाठशालां गच्छति सा कुशलं वा
अत्र कथं 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 योजयित्वा वदतु महोदय कथं कथं योजयित्वा वदतु न श्रूयते महोदय
हलो
अत्र न श्रूयते किमर्थं वदतु महोदय वदतु पुनः एकवारं वदतु कथं योजयित्वा वदतु
हलो
इत्युक्ते श्रोतुं न शक्नोति. अनन्तरम् अत्र राजीव्सिङ्ग् महोदय, अत्र सप्तककारान् जानाति वा भवान्?
आं भगिनि.
उत्तमम्. इत्युक्ते भवान् एतानि पदानि महोदय वदतु महोदय.
भवान् कः का खादति भवती का खादति
किं खादति
किं
भवती किं खादति
भवती किं खादति
This service is provided by freeconferencecall.com. The recording has started.
Please announce yourself. सुचित्रा भगिनी, भवती वदतु, भवती जानाति वा सप्तककारान् जानाति वा?
आं भगिनि,
भवती जानाति चेत् अहं प्रश्नं पृच्छामि, अहं वाक्यं वदामि, भवती प्रश्नवाचकवाक्यं वदतु. गीता पुस्तकं पठति, अत्र प्रश्नवाचकवाक्यं वदतु.
गीता पुनः वदतु भगिनि, न शृणोमि.
गीता, गीता पुस्तकं पठति, तत्र प्रश्नवाचकवाक्यं किम्?
गीता किं पठति?
किं पठति? अपि च लता जलं पिबति, प्रश्नवाचकवाक्यं वदतु.
लता कथं पिबति, किं पिबति?
उमाशङ्कर् महोदय, भवान् म्यूट् कर, अत्र बहु ध्वनिः अस्ति, कृपया म्यूट् करोतु महोदय. उमाशङ्कर् महोदय वदतु भगिनि. उत्तमं. तत् कृष्णफलकम् इति वदामि चेत् प्रश्नवाचकवाक्यं किं भवति?
कृष्णफलकं तत् किम्?
उत्तमं. तत् अपि च सः बालकः भवनं पश्यति, तत्र प्रश्नवाचकवाक्यं वदतु.
भवनं पश्यति, तत् बालकः भवनं पश्यति, तत् बालकः किं पश्यति?
सः बालकः किं पश्यति?
सः बालकः किं पश्यति? पश्यति.
उत्तमं. पश्यति,
पश्यति.
अनन्तरं दन्तकूर्चः अत्र अस्ति,
दन्तकूर्चः कुत्र अस्ति?
उत्तमं. काशी उत्तरप्रदेशे अस्ति,
काशी कुतः अस्ति?
नास्ति भगिनि,
काशी कुत्र अस्ति?
उत्तमम्. अनन्तरं पाटना बीहार प्रदेशे अस्ति, प्रश्नं वदतु, प्रश्नं पृच्छतु.
पाटना कुत्र अस्ति?
उत्तमम्. उत्तरप्रदेश, उत्तरप्रदेश भारतदेशे अस्ति.
उत्तरप्रदेशे कथम् अस्ति, कुत्र अस्ति, कुत्र अस्ति?
पुनः एकवारं वदतु तदेव.
उत्तरप्रदेशे कुत्र अस्ति?
उत्तरप्रदेशे भारतदेशे. अनन्तरम् अधिकारी कार्यालये अस्ति,
अधिकारी कुत्र अस्ति?
उत्तमं. जनाः गृहे सन्ति,
जनाः कुत्र सन्ति?
उत्तमम्. अत्र दशछात्राः सन्ति, प्रश्नं पृच्छतु.
अत्र कति छात्राः सन्ति?
उत्तमम्. अत्र अष्टयानानि सन्ति,
अत्र कति यानानि सन्ति?
उत्तमम्. मार्गे नववाहनानि गच्छन्ति, प्रश्नं पृच्छतु.
मार्गे कति वाहनानि गच्छन्ति?
उत्तमं. मम समीपे द्वादश पुस्तकानि सन्ति,
मम भवती समीपे कति पुस्तकानि सन्ति?
भवत्याः समीपे,
भवत्याः समीपे कति पुस्तकानि सन्ति?
सर्वे शृण्वन्तु, यदा भगिनी उक्तवती, ऐ जस्ट् आल् आफ् यू, ऐ जस्ट् वाण्ट् यू टु लिसन् वेन् सुचित्रा भगिनी इस् एक्स्प्लेनिङ्ग्. अनन्तरं सूर्योदयः प्रातःकाले भवति, प्रश्नं पृच्छतु.
सूर्योदय कदा भवति?
उत्तमं. सूर्यास्तः सायङ्काले भवति,
सूर्यास्तः कदा भवति?
उत्तमं. गणेशः दशवादने विद्यालयं गच्छति,
गणेशः कदा विद्यालयं गच्छति?
सीता सायङ्काले नृत्याभ्यासं करोति,
सीता कदा नृत्याभ्यासं करोति?
उत्तमं. मित्रं, मम मित्रं विदेशतः आगच्छति,
भवती मित्र यु सेड् विच् वन् विदेशस्य ओके
विदेशस्य अत्र पश्यतु मम मित्रं विदेशतः आगच्छति
विदेशतः ओके भवतीं मित्र विदेशतः फ्रम् वेर् ओके फ्रम् वेर् किमर्थं कुत्रस्य आगच्छति
न न भगिनि अत्र कादम्बरी भगिनी वदतु अत्र एकवारं समीकरोतु
कुतः
सम्यक् वाक्यं वदतु भगिनि मम मित्रं विदेशतः आगच्छति वदतु प्रश्नं
मम मित्रः कुतः आगतवती
अत्र पश्यतु भगिनी मित्रः इति न वदामः मित्रं किमर्थं चेत् मित्रः इत्युक्ते सूर्यः मित्रम् इत्युक्ते सखी अथवा फ्रेण्ड् इति वदामः मित्रं पुनः तदेव वाक्यं वदतु मम मित्रं विदेशतः आगच्छति इति उत्तरम् अस्ति परन्तु प्रश्नवाचकवाक्यं कथं वक्तव्यम्
मम मित्रः कुतः आगतवती
मम मित्रं कुतः भवत्याः मित्रं कुतः आगतवती अथवा कुतः आगच्छति इदानीम् अवगतवती वा उत्तमं भवती अपि वदतु एकवारं मम बन्धुः देहलीतः आगच्छति प्रश्नं पृच्छतु
भवत्याः मण्डली कुतः
बन्धुः इत्युक्ते रिलेटिव्
भवत्याः बन्धुः कुतः आगतवती
मम सखी काशीतः आगतवती प्रश्नं पृच्छतु
भवत्याः सखी कुतः आगतवती
उत्तमं गङ्गानदी हिमालयतः प्रवहति वदतु
गङ्गानदी कुतः आगतवती
कुतः प्रवहति कुतः प्रवहति इति वदामः प्रकाशः हैदराबादतः आगच्छति प्रश्नं पृच्छतु प्रकाशः
पुनः वदतु
वाक्यमस्ति प्रकाशः हैदराबादतः आगच्छति
प्रकाशः कुतः
प्रकाशः इति उत्तमं प्रकाशः कुतः आगतवान् तथा एव कुतः आगच्छति इति अपि समीचीनं अनन्तरं धन्यवादः अनन्तरं धन्यवादः भगिनि अत्र राजीव् सिङ्ग् महोदय भवान् वदतु अहं वाक्यं वदामि भवान् प्रश्नं पृच्छतु मम आरोग्यं समीचीनम् अस्ति प्रश्नं पृच्छतु मम आरोग्यं समीचीनम् अस्ति
भवत्याः आरोग्यं कुत अस्ति
कथमस्ति मम स्वास्थ्यम् उत्तमम् अस्ति.
भवत्याः स्वास्थ्यं कथमस्ति?
उत्तमं. शिक्षणं उत्तमम् अस्ति?
शिक्षणं कथमस्ति?
उत्तमं. सीता पठनार्थं विद्यालयं गच्छति.
सीता किमर्थं विद्यालयं गच्छति?
उत्तमं. राधाकृष्णः औषधार्थं चिकित्सालयं गच्छति.
राधा सीता किमर्थम् औषधालयं गच्छति?
उत्तमं. रमा पठनार्थं ग्रन्थालयं गच्छति.
रमा ग्रन्थालयं किमर्थं गच्छति?
उत्तमम्. अधुना वयम् अहं मिश्रणं कृत्वा वाक्यानि वदामि. मिश्रणम् इदानीं पर्यन्तं वयम् एकमेव कृतवन्तः. अत्र तत् कृष्ण, भवान् एव वदतु महोदय, तत् कृष्णफलकम् इति वाक्यमस्ति, प्रश्नं पृच्छतु.
तत् पुनः वदतु.
तत् कृष्णफलकं, तत् कृष्णफलकं,
तत् कृष्णफलकम्.
प्रश्नवाचकवाक्यं वदतु.
किं कृष्णफलकं?
तत् किं?
तत् किं?
तत्र दशछात्राः सन्ति. प्रश्नं पृच्छतु.
कति छात्राः सन्ति? अस्ति.
उत्तमं. सन्ति तत्र, तत्र कति छात्राः सन्ति? अनन्तरं पञ्जाब् भारतदेशे अस्ति.
पञ्जाब् कुत्र अस्ति?
उत्तमं. मम बन्धुः देहलीतः आगच्छति.
भवत्याः बन्धुः कुत्र आगच्छति?
सम्यक् उच्चारयतु महोदय पदं. कुतः?
भवत्याः बन्धुः कुत्र आगच्छति?
मम, भवत्याः बन्धुः कुतः आगच्छति? अनन्तरं गीता नृत्याभ्यासं सायङ्काले करोति.
गीता, what was the verb?
नृत्याभ्यासं, नृत्याभ्यासं सायङ्काले करोति.
गीता नृत्याभ्यासं कदा करोति?
उत्तमं. मार्गे दशवाहनानि गच्छन्ति.
मार्गे कति वाहनानि गच्छन्ति?
उत्तमं. सूर्यास्तः सायङ्काले भवति.
सूर्यकालः कदा भवति?
सूर्यास्तः कदा भवति?
सूर्यास्तः
अनन्तरं सुरेशः प्रातःकाले उत्तिष्ठति.
सुरेशः कदा उत्तिष्ठति?
उत्तमम्.
उत्तिष्ठति.
उत्तिष्ठति. अनन्तरं चषकः अत्र अस्ति.
चषकः कुत्र अस्ति?
माता गृहे अस्ति.
माता कुत्र अस्ति?
उत्तमं महोदय, धन्यवादः. इत्युक्ते इदानीं पर्यन्तं वयं सप्त ककारान् पठित्वा सम्यक्रीत्या ज्ञातवन्तः. यदि भवान् इच्छति चेत् केवलं पुस्तकम् इति पदं योजयित्वा सप्तवाक्यानि वदतु. पुस्तकं, पुस्तकम् इति पदं योजयित्वा तत् किम्? उत्तरं किं भवति? तत् किम् इति वदामश्चेत् तत् पुस्तकम् इति वदामः. अपि च पुस्तकं कुत्र अस्ति वदतु, उत्तरं वदतु. किमपि उत्तरं ददातु.
पुस्तकं अत्र अस्ति,
अत्र अस्ति अथवा गृहे अस्ति. पुस्तकं कदा क्रीतवान्? क्रीतवान् इत्युक्ते वेन् डिड् यु बै द बुक्? पुस्तकं कदा क्रीतवान्?
पुस्तकम् अद्य.
अद्य अथवा गतसप्ताहे किमपि वक्तुं शक्नुमः. अपि च पुस्तके कति पृष्ठाः सन्ति? पृष्ठाः इत्युक्ते
पुस्तके शतं पृष्ठे अस्ति.
शतं पृष्ठाः सन्ति. अपि च पुस्तकं कति जनाः पठितवन्तः? किमपि उत्तरं ददातु पुस्तकमिति योजयित्वा. अपि च पुस्तकं कथमस्ति इति वदामः. पुस्तकं कथमस्ति वदतु महोदय. किमपि पुस्तकं
क्षमा भगिनि, मै काल् इस् ड्रापिङ्ग् मल्टिपल् टैम्स्.
अस्तु, पुस्तकं कथमस्ति?
पुस्तकं पुस्तकम् उत्तमम् अस्ति.
उत्तमं. पुस्तकं किमर्थं पठितवान्?
पुस्तकं नालेज् ज्ञानार्थं पठति.
पठति इत्युक्ते केवलं पुस्तकम् इति पदं स्वीकृत्य सप्तवाक्यानि वयं रचयितुं शक्नुमः. उत्तमं महोदय. अनन्तरम् अधुना वयं किं कुर्मः इत्युक्ते अत्र सप्तककाराः इत्यस्मिन् विषये तृतीयं करपत्रमस्ति अत्र. अत्र एकं सम्भाषणमस्ति, सुनीता सुशीलयोः सम्भाषणम्. अत्र सम्भाषणं पठामः अधुना. अत्र महोदय भवान् एकं वाक्यं पठतु, अपि च शङ्करन् महोदय भवान् द्वितीयं वाक्यं पठतु. प्रथमं वाक्यं राजीवसिङ्ग् महोदय भवान् पठतु. सुनीता
सप्तककारः किं कुत्र कति कदा कुतः कथं किमर्थम् एतत् सम्भाषणम् उच्चैः पठन्तु. सुनीता, अहो चिरात् दर्शनम्, आगच्छतु भगिनी, उपविशतु.
सुशीला, नमस्ते भगिनी, कथम् अस्ति भवत्याः आरोग्यम् इदानीम्?
सुनीता, आम्, इदानीं मम आरोग्यं सम्यक् अस्ति. भवती जानाति एव कथं मम महती पृष्ठवेदना आसीत् इति. इदानीं समीचीनम् अस्ति.
सुशीला, भवत्याः आरोग्यं सम्यक् जातम् इति श्रुत्वा मम महान् आनन्दः जातः. पृष्ठवेदना निवारकं सर्वाङ्गसनं मया पठितं. भवती तत् नित्यं करोति? सर्वाङ्गासनं इति मया पठितं. भवती तत् नित्यं करोति किम्?
सुनीता, आम्, आसनानां तु महता प्रयोजनम् अस्ति एव. इदानीम् अहं प्रतिदिनं योगासनं करोमि. अधुना मम अनुजः अपि योगाभ्यासम् आरब्धवान् वान एव
सुशीला किं रघुवीरः अपि योगासनं करोति महत् आश्चर्यं सः पूर्वं व्यायामशालां गच्छति स्म किल कालान्तरेण अलसः भूत्वा कुत्र अपि न गच्छति एव खलु
अत्र महोदय अत्र किञ्चित् स्थगयामः अत्र ध्वनिः अस्ति महोदय तदर्थं म्यूट् करोमि इदानीं पर्यन्तं वयं किञ्चित् पठितवन्तः अत्र अधुना पङ्क्तिशः पश्यामः इत्युक्ते विल् गो लैन् बै लैन् अत्र यदि भवन्तः अवगतवन्तः चेत् वदन्तु अत्र सम्भाषणमस्ति सप्तककाराः इत्यस्मिन् विषये एव अत्र सम्भाषणं दत्तमस्ति यदि साधारणतया भवन्तः श्रुतवन्तः एव का की कु कु के कै तथा वदामश्चेत् ककापङ्क्तिः इति वदामः तस्य नाम अस्ति ककापङ्क्तिः परन्तु अत्र सप्तककाराः दत्ताः अत्र सप्त ककार प्रथमम् अक्षरमस्ति ककारम् अत्र सप्त भवन्तः जानन्ति एव एतानि पदानि तेषां नाम अस्ति सप्तककाराः प्रथमं वाक्यम् अहो चिरात् दर्शनम् अत्र चिरात् इति पदमस्ति चिरात् इत्युक्ते किं राजीवसिंह महोदय वदतु
आफ्टर् लाङ्ग् टैम्
तस्य विरुद्धार्थकपदं वदतु आपोजिट् वर्ड् जानाति वा अचिरात् चिरात् इत्युक्ते चिरकालस्य अनन्तरम् अनन्तरं दर्शनमस्ति आगच्छतु भगिनी अत्र पश्यन्तु सर्वे भगिनी कथं लिखितमस्ति अत्र साधारणतया भगिनी दीर्घत्वम् अस्ति चेत् प्रथमाविभक्त्यन्तरूपं यदि केवलं भगिनी ह्रस्वम् अत्र ह्रस्व इकारः अस्ति यदि ह्रस्व इकारः अस्ति चेत् सम्बोधनारूपम् इति वदामः भगिनी दीर्घमस्ति चेत् प्रथमाविभक्त्यन्तरूपं परन्तु ह्रस्वम् अस्ति चेत् सम्बोधनारूपम् इति वदामः अत्र भवानेव वदतु महोदय आगच्छतु उपविशतु इति पदद्वयमस्ति अत्र आगच्छतु उपविशतु एतत् पदद्वयमपि लोट्लकारे अस्ति लोट्लकारः इत्युक्ते किम् अहं पूर्वम् उक्तवती वदतु
I'm Bhagni, so it's a direction to asking, come and sit.
Uttamam. Itchukte, Ajnyartheva, Prarthanartheva, Lotlakarasya Upayogum Kurmaha. Atta, Ajnyartheva Dittiva, Prarthanartheva Dittiva, Bhagini. Is she requesting or is she demanding?
She's requesting.
Uttamam.
Could be demanding too, right? Or...
साधारणतया रिक्वेस्टिङ्ग् प्रार्थनार्थे एव अत्र भगिनी अत्र आगच्छतु उपविशतु अनन्तरं द्वितीयं वाक्यमस्ति अत्रापि नमस्ते भगिनी अत्र भगिनी इति वदामश्चेत् तत्र सम्बोधनारूपम् अस्ति कथमस्ति भवत्याः आरोग्यम् इदानीम् इति पदं श्रुतवन्तः वा श्रुतवान् वा भवान् इदानीम् इत्युक्ते इदानीम् इत्युक्ते किम्
न जानाति
अस्तु महोदय अत्र उमाशङ्करमहोदय भवान् वदतु अत्र इदानीम् इति पदमस्ति उमाशङ्करमहोदय इतोपि इदानीम् इत्यस्मिन् विषये अन्यानि पदानि सन्ति भवान् जानाति वा अन्यानि पदानि
न जानामि
वदामि अधुना वदामि कोऽपि जानाति चेत् वदन्तु नो चेत् अहं वदामि इदानीम् इत्युक्ते यथा उमाशङ्करमहोदयः उक्तवान् इदानीम् इत्युक्ते नौ इत्यस्मिन् विषये अन्यानि पदानि सन्ति. अन्यानि पदानि कानि इत्युक्ते अधुना अथवा सम्प्रति अथवा साम्प्रतम् अथवा नूनं सद्यः अध इति वदामश्चेत् इदानीम् इत्यर्थः. इत्युक्ते वयं जानीमहेव रामायणे एकः श्लोकः अस्ति साम्प्रतं लोके. प्रथमः श्लोकः एव तत्र साम्प्रतम् इत्युक्ते नौ. यदि वयं पूजां कुर्मः तत्र वदामः अध द्वितीयोऽध्यायः इत्युक्ते नौ वि हव् कम्प्लीटेड् फस्ट् चाप्टर्. तथा एव अत्र इदानीम् इत्यस्मिन् विषये अन्यानि पदानि अपि सन्ति. यथा अन्यानि पदानि कानि इत्युक्ते अधुना सम्प्रति साम्प्रतम् एतानि पदानि सन्ति. अत्र सुशीला सुनीतां पृष्टवती, किं पृष्टवती, कथमस्ति भवत्याः आरोग्यम् इदानीम् इति. तस्य उत्तरं किं वदति उमाशङ्करमहोदय, वदतु अत्र उत्तरं किम्.
आम्, इदानीं मम आरोग्यं सम्यक् अस्ति.
यदि सम्यक् नास्ति चेत् किं, सम्यक् नास्ति चेत् किं वदति.
इदानीं मम आरोग्यं सम्यक् नास्ति.
उत्तमं, सम्यक् नास्ति, परन्तु अत्र सम्यक् अस्ति. किमर्थम् इदानीं सम्यक् अस्ति परन्तु पूर्वं सम्यक् नास्ति, तदेव उक्तवती. अग्रिमं वाक्यं पठतु.
भवती जानाति एव कथं मम महती पृष्ठवेदना आसीत् इति.
पृष्ठवेदना इत्युक्ते कः वदति, पृष्ठवेदना इत्युक्ते किम्. उत्तमं, बेक् पेन्, पृष्ठवेदना. महोदय भवानेव वदतु, उमाशङ्करमहोदय वदतु, हेडेक् इत्युक्ते किं वदामः. अधुना भवान् पृष्ठवेदना जानाति, पृष्ठवेदना इत्युक्ते बेक् पेन्. हेडेक् इत्युक्ते, शङ्करन् महोदय भवान् वदतु.
शिरोवेदना.
उत्तमं, शिरोवेदना, उत्तमम्. इत्युक्ते अत्र वेदना इति पदम् आकारान्तपदं, तदर्थम् अत्र विशेषणमपि महती वेदना. अत्र अत्र किञ्चित् वदामि, अत्र महत् महत् इति पदं विशेषणमस्ति. महत् इति पदं विशेषणमस्ति इत्युक्ते महत् इति पदं त्रिषु लिङ्गेषु भवति. पुंलिङ्गे वदामश्चेत् महान् इति वदामः, स्त्रीलिङ्गे वदामश्चेत् महती, नपुंसकलिङ्गे महत्. अत्र पश्यन्तु सर्वे, महती वेदना अस्ति इत्युक्ते वेदना इति पदम् आकारान्तस्त्रीलिङ्गपदम्, अतः महती वेदना अस्ति इति वदामः. यदि आनन्दः अस्ति चेत् महान् आनन्दः इति वदामः. इत्युक्ते अत्र महत् इति प्रातिपदिकं रूपं, मूलरूपं महत् इति प्रातिपदिकात् त्रिषु लिङ्गेषु अत्र विशेषणत्वेन रूपाणि भवन्ति, महती, महान्, महत्. नपुंसकलिङ्गे महत्, स्त्रीलिङ्गे महती, पुंलिङ्गे महान्. अत्र मम महती पृष्ठवेदना आसीत्. अधुना राजीव्सिङ्ग् महोदय भवान् वदतु, अधुना महती वेदना अस्ति वा, पूर्वम् अस्ति वा. पूर्वम् अस्ति, तदर्थम् अत्र एकं नूतनं पदं दत्तमस्ति. भवान् एव अत्र अधुना पृष्ठवेदना अस्ति चेत् किं वदामः, अधुना मम महती पृष्ठवेदना अस्ति इति वदति, परन्तु पूर्वमस्ति, तदर्थम् आसीत्. आसीत् इति उक्तवती. इदानीं समीचीनमस्ति. अग्रिमं वाक्यं भवान् एव पठतु भवत्याः.
भवत्याः आरोग्यं सम्यक् जातम् इति श्रुत्वा मम महान् आनन्दः जातः.
भवत्याः आरोग्यं सम्यक् जातम्. अत्र जातम् इति पदम् अपि त्रिषु लिङ्गेषु भवति. किमर्थं चेत् क्षान्तप्रत्ययान्तरूपमस्ति. जातः, जातं, जाता तथा त्रिषु लिङ्गेषु भवति. परन्तु अत्र आरोग्यम् इति पदं नपुंसकलिङ्गे अस्ति इति कृत्वा अत्र आरोग्यं जातं. कथम् आरोग्यं सम्यक् जातं, भवत्याः आरोग्यं सम्यक् जातम् इति श्रुत्वा. अत्र श्रुत्वा इति पदं जानाति वा महोदय?
After
listening to it, मम महान् आनन्दः जातः. अत्र पश्यन्तु, पूर्वस्मिन् वाक्ये महती वेदना आसीत् इति वाक्यमस्ति. वेदना इति पदस्य अत्र महान् आनन्दः जातः. अत्र आनन्दः इति पदं पुंलिङ्गपदम्. अतः महान् आनन्दः अपि च जातः इति पदमपि पुंलिङ्गे अस्ति. पूर्वस्मिन् वाक्ये आरोग्यं जातम्, आनन्दः जातः इत्युक्ते अत्र विशेषणं. यदि विशेषणमस्ति चेत् विशेषणं तत्र लिङ्गं वचनं विभक्तिः समानं भवति तत्र. अत्र महान् आनन्दः जातः इत्युक्ते भवत्याः आरोग्यं सम्यक् जातम् इति श्रुत्वा मम महान् आनन्दः जातः. पृष्ठवेदनानिवारकं सर्वाङ्गासनम् इति मया पठितम् इत्युक्ते किं वदतु महोदय?
निवारकं to get rid of back pain, sarvanga asan, that you should do sarvanga asan.
Ichukte prashta vedana nivarakam sarvanga asanam iti maya pathitam. Maya pathitam yadi bhavantah jananti chet atra maya pathitam iti vakyam atra karmani prayoge asti. Ichukte atra यथा आङ्ग्लभाषायाम् आक्टिव् वाय्स्, पासिव् वाय्स् इति वदामः. आक्टिव् वाय्स् इत्युक्ते कर्तरीप्रयोगः, पासिव् वाय्स् इत्युक्ते कर्मणि प्रयोगः. अत्र मया पठितम् इति वाक्यं कर्मणि प्रयोगे अस्ति. तया किं पठितं? पृष्ठवेदनानिवारकं सर्वाङ्गासनम् इति विषयं पठितम्. अपि च सा किं पृष्टवती? भवती तत् नित्यं करोति किम् इति पृष्टवती. वदतु महोदय. तदनन्तरम् अग्रिमं वाक्यं पठतु. अग्रिमं वाक्यम्
आम् आसनानां तु महत् प्रयोजनम् अस्ति एव.
आसनानां तु महत् प्रयोजनम् अस्ति एव. अत्र आसनानाम् इति पदमस्ति. तस्य वचनं विभक्तिः का महोदय? वदतु.
आसनानां द्वितीयविभक्ति
न महोदय. अत्र कः वदति? उमाशङ्करमहोदय, भवान् वदतु. आसनानां
षष्ठीविभक्ति.
उत्तमं. षष्ठीविभक्तिः वचनं किम्?
आसनानां इट्स् बहुवचनं, राइट्?
उत्तमम्. अपि च लिङ्गं किम्?
पुल्लिङ्ग.
अत्र महोदय पदमस्ति आसनम्.
आसनम्
यथा फलम्.
इट्स् नपुंसकलिङ्गे.
उत्तमम्. आसनानाम् इति पदं नपुंसकलिङ्गे बहुवचने षष्टिविभक्त्याम् अस्ति. इत्युक्ते आसनानां तु महत् प्रयोजनम् अस्ति एव इदानीम् अहं प्रतिदिनं योगासनं करोमि. इदानीम् इत्युक्ते अधुना अहं प्रतिदिनं योगासनं करोमि. अधुना मम अनुजः अपि योगाभ्यासम् आरब्धवान्. इत्युक्ते किं वदतु महोदय? अधुना मम
अधुना अहं न जानामि.
अधुना इत्युक्ते इदानीम्
अधुना
इत्युक्ते
my younger brother arabdwan made arrangements for me.
Nana adhuna mama anujaha anujaha ichukte kaha
younger brother
mama anujaha api yoga abhyasam arabdhavan.
He arranged yoga for me.
Nana arabdhavan ichukte arambham krutavan. He also started doing the
okay
योगासनात्. उत्तमं महोदय. अनन्तरं धन्यवादः. अधुना कादम्बरी भगिनी भवती पठतु, अपि च सुचित्रा भगिनी. कादम्बरी भगिनी सुशीला, सुचित्रा भगिनी सुनीता, पठन्तु.
किं रघुवीरः अपि योगासनं करोति? महदाश्चर्यं. सः पूर्वं व्यायामशालां गच्छति स्म किल. कालान्तरेण अलसः भूत्वा कुत्रापि न गच्छति एव खलु?
सुनीता: आम्, किन्तु सः इदानीं योगेन प्रभावित अस्ति, अतः व्यायामशालामपि गच्छति, योगाभ्यासम् अपि नित्यं करोति.
समीचीनम्. कुत्र अस्ति रघुवीरः?
सः बहिः गतवान्. अद्य विरामः अस्ति खलु? उपविशतु भगिनी, पातुं किमपि आनयामि.
अस्तु.
रघुवीरः गृहं प्रविशति. इदानीं पर्यन्तं भवन्तः अवगतवन्तः वा? सो फार् यू अण्डर्स्टुड् वाट् हेपन्ड् हियर्? अत्र सुशीला सुनीतयोः सम्भाषणमस्ति. अत्र किं रघुवीरः अपि योगासनं करोति इति सुशीला पृष्टवती. रघुवीरः इत्युक्ते सः कः? कादम्बरी भगिनी वदतु.
सः रघुवीरः सुनीता अनुजः.
उत्तमं. सुनीतायाः अनुजः. सः अपि योगासनं करोति. महदाश्चर्यम्. अत्र पश्यन्तु, आश्चर्यं महत् प्लस् आश्चर्यं महदाश्चर्यम् इति पदम् आगच्छति. तत्रापि सन्धिः अस्ति. तस्य नाम अस्ति जस्त्वसन्धिः. महदाश्चर्यम् इत्युक्ते किं भगिनि वदतु? महदाश्चर्यम् इत्युक्ते कादम्बरी वदतु भगिनि.
सर्प्रैस्.
उत्तमं. सः पूर्वं व्यायामशालां गच्छति स्म किल? अत्र पश्यन्तु सर्वे, सः इत्युक्ते अत्र कः? रघुवीरः. रघुवीरः पूर्वं व्यायामशालां गच्छति स्म किल? अत्र स्म इति पदं दत्तमस्ति. स्म इत्युक्ते भूतकालार्थे वदामः. गच्छति स्म स्मा इति पदमपि अग्रे गत्वा वयं पठिष्यामः. रघुवीरः पूर्वं व्यायामशालां गतवान्. तदेव अत्र सुशीला वदति, सः रघुवीरः पूर्वं व्यायामशालां गच्छति स्म किल, परन्तु कालान्तरेण अलसः भूत्वा कुत्रापि न गच्छति एव खलु. इत्युक्ते किं भगिनी वदतु, सुचित्रा भगिनी, कालान्तरेण अलसः भूत्वा वदतु.
कालान्तरेण लेज़िनेस् इन् द मार्निङ्ग्.
कालान्तरेण इत्युक्ते कालान्तरेण इत्युक्ते किञ्चित् कालानन्तरं, ओवर् ए पीरियड् आफ् टैम् इति वदामः.
ओके,
कालान्तरेण
कालान्तरेण अलसः भूत्वा कुत्रापि न गच्छति एव खलु, बिकास् आफ् लेसिनेस् यु नो हि वास् नाट् गोयिङ्ग् फार् सम् टैम्.
He was not going anywhere. Kalantarena, kalantarena, itukte over a period of time, saha raghuvirah alasah bhutva kutrapi nagacchati eva khalu. Sunita prushtavati. Tada kim abhavat, kadambari bhagini bhavati pathatu, adhina pathantu, agrimam vakyam.
Kintu saha idanim योगेन प्रभावितः अस्ति, अतः व्यायामशालामपि गच्छति, योगाभ्यासम् अपि नित्यं करोति.
इत्युक्ते अधुना सुनीता वदति, आम् किन्तु सः इदानीं योगेन प्रभावितः अस्ति. केन प्रभावितः? योगेन प्रभावितः इत्युक्ते सः अपि योगाभ्यासं कर्तुमिच्छति, सः प्रभावितः अभवत्. सः इदानीं योगेन प्रभावितः अस्ति, अतः सः अपि व्यायामशालां गन्तुमिच्छति, व्यायामशालां गत्वा योगाभ्यासं नित्यं करोति. कः करोति? कस्मिन् विषये अत्र सुनीता वदति, कादम्बरीभगिनी वदतु.
रघुवीरः
तस्मिन् विषये, रघुवीरस्य विषये एव अत्र चर्चा अभवत्. डिस्कसिङ्ग् अबौट् रघुवीरः. रघुवीरः अधुना व्यायामशालां गन्तुमिच्छति, सः गच्छति, अपि च योगाभ्यासमपि नित्यं करोति. सुचित्रा भगिनी पठतु अग्रिमं वाक्यं.
समीचीनं, कुत्र अस्ति रघुवीरः?
पठतु भगिनि, कादम्बरि भगिनि.
सः बहिः गतवान्, अद्य विरामः अस्ति खलु. अपि उपविशतु भगिनि, पातुं किमपि आनयामि.
किमपि आनयामि इत्युक्ते अत्र रघुवीरः कुत्र अस्ति इति सुशीला पृष्टवती. तदा सुनीता वदति, रघुवीरः बहिः गतवान्, अद्य विरामः अस्ति खलु. विरामः इत्युक्ते अवकाशः. विरामः इत्युक्ते किं? कः वदति? सुचित्रा भगिनी वदतु.
विराम हालिडे और रेस्ट डे.
उत्तमम्. अद्य विरामः, तस्य कृते विरामः अस्ति खलु, अतः रघुवीरः बहिः गतवान्. परन्तु भगिनी भवती उपविशतु, पातुं किमपि आनयामि. पातुं, पातुम् इत्युक्ते किम्? अत्र नूतनं पदमस्ति अस्मिन् वाक्ये. पातुं, दातुं, गन्तुं, खादितुं, पठितुम् इत्युक्ते एतानि पदानि तुमुन्नन्तानि इति वदामः. तुमुन् प्रत्ययं तस्मिन् विषये अभ्यासपुस्तके एव अग्रे गत्वा वयं पठिष्यामः. पातुम् इत्युक्ते आङ्ग्लभाषायां वदति भगिनी, जानाति चेत्? टु ड्रिङ्क्. टु ड्रिङ्क्, पातुं पातुम् इत्युक्ते पिबति, वयं जानीमः पिबति इति क्रियापदं जानीमः, अहं जलं पिबामि पिबति इति क्रियापदात् पातुम् इति तुमुन्नन्तं पदम् आगच्छति. तथा एव पठति इति पदात् पठितुं, खादति इति पदात् खादितुं, तथा तुमुन्नन्तपदानि आगच्छन्ति. इत्युक्ते अत्र पातुं किमपि आनयामि भवत्याः कृते, टु ड्रिङ्क् ऐ विल् ब्रिङ्ग् सम्थिङ्ग्, पातुं किमपि आनयामि इति सुनीता वदति. अग्रिमं वाक्यं पठतु भगिनि.
अस्तु रघुवीरः गृहं प्रविशति.
गृहं प्रविशति, रघुवीरः गृहं प्रविशति. अत्र गृहम् इति पदं द्वितीयविभक्तौ अस्ति, इत्युक्ते अत्र कर्मपदं, परन्तु गृहमिति पदं प्रथमाविभक्तौ अपि गृहम् एव. नपुंसकलिङ्गपदं गृहम् इति पदं, तदर्थं प्रथमाविभक्तौ अपि च द्वितीयविभक्तौ तस्य रूपं समानम्, अतः अत्र गृहम् एव. वदतु भगिनि अग्रिमं वाक्यं पठतु.
ओके. नमस्ते भगिनि, कथम् अस्ति भवती?
कादम्बरी भगिनी वदतु.
नमस्ते भोः, अहं कुशलिनी. भवान् अपि योगाभ्यासम् आरब्धवान् इति श्रुतं. योगाभ्यासं कदा आरब्धवान्?
इत्युक्ते अत्र नमस्ते भगिनी, अत्रापि सर्वे पश्यन्तु भगिनी इति सम्बोधनं रूपम्, अतः ह्रस्वं भगिनी इति एव दत्तमस्ति. रघुवीरः सुशीलाम् उद्दिश्य सः पृष्टवान्, कथमस्ति भवती भगिनी इति उक्तवान्. अहं कुशलिनी, स्त्री वदति चेत् अहं कुशलिनी इति वदामः. यदि रघुवीरः वदति चेत् किं वदति अत्र? कादम्बरी भगिनी वदतु. अत्र सुशीला वदति, तदर्थमेव अहं कुशलिनी इति उक्तवती. यदि रघुवीरः वदति चेत् उमाशङ्करमहोदय भवान् वदतु अत्र.
अहं कुशली.
उत्तमं महोदय, भवानेव करोतु अधुना. भवान् अपि योगाभ्यासम् आरब्धवान् इति श्रुतं. सुशीला रघुवीरम् उद्दिश्य वदति, भवान् अपि योगाभ्यासम् आरब्धवान् इति मया श्रुतम्. इत्युक्ते किं महोदय वदतु?
भवान् अपि I understand that you are learning yogasana.
उत्तमम्. योगाभ्यासं कदा आरब्धवान् भवान्?
When you started the yogasana.
उत्तमं, तावदेव. अग्रिमं वाक्यं पठतु.
अहम् एकमासात् पूर्वं योगाभ्यासम् आरब्धवान्.
इत्युक्ते अत्र सुशीला पृच्छति, किं पृच्छति? भवान् कदा आरब्धवान् योगाभ्यासम् इति पृच्छति. तदा रघुवीरः वदति, एकस्मात् मासात् पूर्वं योगाभ्यासम् अहम् आरब्धवान् इति रघुवीरः उत्तरं ददाति. तदनन्तरं
सुशीला, किमर्थं योगाभ्यासम् आरब्धवान्?
किमर्थम् आरब्धवान् भवान्?
मम नाम भगिन्याः पृष्ठवेदना आसीत् इति भवती जानाति. कश्चन वैद्याः योगाभ्यासं करोतु इति उक्तवान् इत्यतः सा आरम्भवती. कालान्तरे तस्याः आरोग्यं samichinam jatam vedana cha apagata etane agamapi prenam praptavan pratidinam prataha ek oram yavad योगाभ्यासं करोमि.
उत्तमम्. अत्र पश्यन्तु, अत्र मम भगिन्याः पृष्ठवेदना आसीत्. अधुना मम भगिन्याः पृष्ठवेदना अधुना नास्ति, परन्तु पूर्वम् अस्ति. तदर्थं मम भगिन्याः पृष्ठवेदना आसीत् इति भवती जानाति एव. कश्चन वैद्यः उक्तवान् योगाभ्यासं करोतु इति सः वैद्यः उक्तवान्. तदर्थं मम भगिनी योगाभ्यासं कर्तुम् आरब्धवती, परन्तु कालान्तरेण तस्याः आरोग्यं समीचीनम् अभवत्, तस्याः वेदना अपि अपगता. इदानीं मम भगिन्याः आरोग्यं सम्यक् अस्ति, सा सम्यक् रीत्या योगासनं कृतवती, तदर्थं तस्याः आरोग्यं समीचीनम् अभवत्, वेदना अपि अपगच्छति, अपगता. तदर्थमेव अहमपि प्रेरणां प्राप्तवान्. इत्युक्ते किं महोदय, वदतु. प्रेरणां प्राप्तवान्. एतेन
एतेन अहम् अपि प्रेरणां प्राप्तवान्.
इत्युक्ते एतेन कारणेन, अनेन कारणेन, इत्युक्ते मम भगिनी सम्यक् रीत्या योगासनं कृतवती, तस्याः पृष्ठवेदना अपगता, तस्याः आरोग्यं सम्यक् अस्ति, अहम् एतत् सर्वं दृष्टवान्. दर्शनस्य अनन्तरं मम अहमपि प्रेरितवान्. ऐ गाट् मोटिवेटेड्. एतेन कारणेन अहमपि प्रेरणां प्राप्तवान्. तदर्थम् एतत् सर्वं दृष्ट्वा अहमपि प्रेरितवान्. तदर्थं तेन कारणेन प्रतिदिनम् अहमपि एकहोरां यावत् योगाभ्यासं करोमि. अत्र होरा इति एकं नूतनं पदमस्ति. होरा इत्युक्ते किम्? उत्तमम्. अहमपि प्रतिदिनं प्रातः एकहोरां योगाभ्यासं करोमि. उत्तमं महोदय. अधुना शीघ्रं वयं समापयामः. शङ्करन् महोदय, भवान् पठतु अधुना शीघ्रम्.
सुशीला, भवान् नित्यं योगाभ्यासं करोति इति सन्तोषस्य विषयः, कुत्र योगाभ्यासं करोति? यु वाण्ट् मी टु एक्स्प्लेन् दिस् आर् केन् ऐ जस्ट् रीड्?
रीड् इट् महोदय, पठतु, केवलं पठतु.
ओहो, रघुवीरः, अस्माकं कार्यालयस्य निकटे एकं योग, तत्र अहं मम मित्राणि च प्रतिदिनं योगाभ्यासं कुर्मः. सुशीला, इदानीं भवान् कति आसनानि जानाति? रघुवीरः, अहम् इदानीं प्रायः विंशतिम् आसनानि जानामि.
उत्तमम्. इत्युक्ते अत्र सः सुशीला किं वदति, भवान् नित्यं योगाभ्यासं करोति इति सन्तोषस्य विषयः, परन्तु सः भवान् कुत्र योगाभ्यासं करोति वदतु इति सा पृष्टवती, रघुवीरम् उद्दिश्य पृष्टवती. तदा सः किं वदति, अस्माकं कार्यालयस्य निकटे, निकटे इत्युक्ते समीपे, पार्श्वे, मम कार्यालयस्य समीपे एकं योगकेन्द्रमस्ति, तत्र अहं मम मित्राणि च प्रतिदिनं योगाभ्यासं कुर्मः. इदानीं भवान् कति आसनानि जानाति इति सा पृष्टवती. हौ मेनि आसनास् डू यु नो इति सुशीला पृष्टवती. तदा रघुवीरः किं वदति, वदतु महोदय. अत्र शङ्करन् महोदय वदतु.
अहम् इदानीं प्रायः 20 आसनानि जानामि.
इत्युक्ते किं 20?
नौ ऐ नो 20 मीन्स् 20 आसनास् ऐ नो.
अग्रिमं वाक्यं पठतु.
सुशीला बहु उत्तमं. प्रतिदिनं कति नमस्कारान् करोति रघुवीरः. प्रतिदिनं 13 सूर्यनमस्कारान् करोमि. सुनीता, योगः अस्माकं जीवनविधानम् अस्ति. अस्माकं स्वास्थ्यस्य संरक्षणार्थं वयं प्रतिदिनं योगासनं कुर्मः. अस्माकं गृहे नित्यं योगासनस्य अभ्यासः प्रचलन्ति. सुशीला, आम्, भवतां गृहं तु योगगृहम् इत्येव वक्तुं शक्यते. भवतु, अहं गच्छामि. अग्रे कदाचित् मिलामः. सुनीता, रघुवीरः च, अस्तु, मिलामः.
इत्युक्ते अत्र एकवारं पश्याम. अत्र सुशीला वदति, प्रतिदिनं कति सूर्यनमस्कारान् करोति भवान् इति रघुवीरम् उद्दिश्य सुशीला पृच्छति. कति नमस्कारान् करोति भवान् प्रतिदिनं? तदा रघुवीरः वदति, प्रतिदिनम् अहं 13 करोमि. कादम्बरी भगिनी वदतु, 13 इत्युक्ते?
त्रयोदशसूर्यनमस्कारान् इत्युक्ते 13.
उत्तमम्. इत्युक्ते सः प्रतिदिनं 13 करोति इति सा उत्तरं सः उत्तरं दत्तवान्. अपि च अत्र सुनीता वदति, योगः अस्माकं जीवनविधानम्. योगः अस्माकं जीवनविधानम्, अस्माकं स्वास्थ्यसंरक्षणार्थम् इत्युक्ते आरोग्यवर्धनार्थम्, आरोग्याय वयं प्रतिदिनं योगासनं कुर्मः. मम गृहे, अस्माकं गृहे नित्यं योगासनस्य अभ्यासाः प्रचलन्ति. इत्युक्ते मम गृहे अत्र प्रचलन्ति इति एकं नूतनं पदमस्ति. मम गृहे प्रतिनित्यं योगासनस्य अभ्यासाः प्रचलन्ति. इत्युक्ते किं, भवती किम् अवगतवती अत्र? कादम्बरी भगिनी वदतु. अस्माकं गृहे वदतु.
अस्माकं गृहे नित्यं योगासनस्य अभ्यासाः प्रचलन्ति.
इत्युक्ते at my home every day we do yoga exercises. अभ्यासाः, योगासनस्य अभ्यासाः प्रचलन्ति. Keep on going on the yoga exercises. We do yoga exercises every day. इति अर्थः. तदा सुशीला वदति, आम्, भवतां गृहं तु योगगृहम् इत्येव वक्तुं शक्यते. भवत्याः गृहं योगगृहम् इति वक्तुं शक्नुमः. इत्येव इति पदमस्ति अत्र. इति प्लस् एव, इत्येव, तत्रापि सन्धिः अस्ति. भवतां गृहं योगगृहम् इति वक्तुं शक्नुमः. भवतु, अहं गच्छामि. अग्रे कदाचित् मिलामः. कदाचित् इति पदं जानाति वा भगिनी अत्र? इदानीं पर्यन्तं वयं कदा इति जानीमः, परन्तु कदाचित् इति वदामश्चेत् कदा मिलामः इति सा न जानाति. कदाचित् इत्युक्ते इट्स् वेरि अन्सर्टेन्. वेन् यु वाण्ट् टु से समथिङ्ग् अन्सर्टेन्, देन् यु आर् सपोस् टु आड् ए वर्ड् काल्ड् चित् अथवा जन कदा प्लस् चित् कदाचित् दट् मीन्स् शी इस् नाट् वेरि शूर् अबौट् वेन् शी इस् गोयिङ्ग् टु मीट् हर् वन्स् अगेन् तदर्थमेव अत्र अन्यं पदं नूतनं पदमस्ति भगिनि वदतु
whenever
not whenever sometime
okay
kada idanim paryantam vayam kada janimaha parantu tatra kadachit iti asti kadachit ichukte chit yojanena tatra uncertainty agacchati kadachit ichukte sometime agre kadachit milamaha sunita तथा सा वदति तदनन्तरं सुनीता अपि च रघुवीरः अपि वदन्ति अस्तु अग्रिमे कदाचित् मिलामः इति ते उत्तरं ददति इत्युक्ते अत्र सम्भाषणं वयं पठितवन्तः अत्र अहं चिन्तयामि सम्भाषणं भवन्तः सर्वे अवगतवन्तः इति अहं चिन्तयामि परन्तु अस्मिन् करपत्रे इतोपि अभ्यासाः सन्ति अग्रिमे सप्ताहे पुनः एकवारं मिलित्वा अन्यान् अभ्यासान् कुर्मः तदान् अत्र अधुना स्थगयाम सर्वेषां धन्यवादः नमस्कारः अधुना समयः जातः तदर्थम् अधुना स्थगयाम
धन्यवादः
धन्यवादः भगिनी
धन्यवादः
धन्यवाद भगिनी।